एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। वैशाखस्य त्रिंशे दिवसे सम्पन्नस्य स्थानीयस्तराणाम् निर्वाचनस्य परिणामः मतगणनायाः पश्चात्तन विवरणम् च प्राप्यमाने स्तः। अधुनावधि सार्वजनिकृतस्य विवरणस्यानुसारेण मनाङ, मुस्ताङ, डोल्पा जनपदानां द्वादशपालिकानां मतपरिणामः सार्वजनीभूतो वर्तते। एतदनुसारेण नेपाली कांग्रेस दलेन चतसृष् पालिकास् नेकपा एमाले दलेन पञ्चस् नेकपा समाजवादिना द्वयो नेकपा माओवादिना एकस्मिन् च स्थानेष् विजय अधिगतो वर्तते। महानगरपालिकानां पश्चात्तन परिणामेषु काष्ठमण्डप महानगरपालिकायाः प्रमुखपदे बालेन्द्र शाहः अग्रस्थाने वर्तते। स्वतन्त्र प्रत्याशिना शाहेन सहस्रं द्वानवत्यधिक शतं च मतानि प्राप्तानि सन्ति। एतस्य निकटवर्तिना नेकपा एमाले दलस्य प्रत्याशिना केशव स्थापितेन एकसप्तत्यधिक सप्तशतं मतानि प्राप्तानि सन्ति। नेपाली कांग्रेस दलस्य प्रत्याशिनी सृजना श्रेष्ठः तृतीय स्थाने वर्तते। महानगरपालिकायाः उपप्रमुखपदे पश्चात्तन परिणामस्य अनुसारेण नेकपा एमाले दलस्य प्रत्याशिनी सुनीता डंगोलः अग्रस्थाने अस्ति। डंगोल इत्यनया सहस्रं अष्टात्रिंशदधिक शतत्रयं च मतानि प्राप्तानि सन्ति। एतस्याः निकटवर्तिना नेकपा एकीकृत समाजवादी दलस्य प्रत्याशिना रामेश्वर श्रेष्ठेन च अष्टाधिक शतचतुष्टयं मतानि प्राप्तानि सन्ति। ललितपुर महानगरपालिकायाः प्रमुखपदस्य पश्चात्तन परिणामस्य अनुसारेण नेपाली कांग्रेस दलस्य चिरी बाबु महर्जन अग्रणी स्थाने अस्ति। महर्जन इत्यनेन पञ्चाधिक पञ्चशतं मतानि प्राप्तानि सन्ति। नेकपा एमाले दलस्य प्रत्याशी हरिकृष्ण व्यञ्जनकारः सप्तत्रिंशदधिक शतद्वयं मतानि लब्ध्वा द्वितीय स्थाने वर्तते। ललितपुर महानगरपालिकायाः उपप्रमुखपदे नेकपा एमाले दलस्य प्रत्याशिनी मञ्जली शाक्य वज्राचार्यः अग्रणी स्थाने अस्ति। नेकपा माओवादी केन्द्रस्य बाबुराम वज्राचार्यः द्वितीय स्थाने वर्तते। मनाङ जनपदस्य मुख्यालयवर्तिन्याः चामे ग्रामपालिकायाः नार्पा भूमि ग्रामपालिकायाश्च मतगणना समाप्ता वर्तते। नार्पा भूमि ग्रामपालिकायाः अध्यक्षपदे नेपाली कांग्रेस दलस्य कुञ्जो तेन्जिङ लामा निर्वाचितो वर्तते। एवमेव चामे ग्रामपालिकायाः अध्यक्षपदे नेकपा एमाले दलस्य लोकेन्द्र बहादुर घले निर्वाचितोऽस्ति। मुस्ताङ जनपदस्य लोमान्थाङ ग्रामपालिकायाः अध्यक्षोपाध्यक्षपदयोः नेकपा एमाले दलस्य प्रत्याशिनौ निर्वाचितौ स्तः। लोमान्थाङ ग्रामपालिकायाः अध्यक्षपदे एमाले दलस्य प्रत्याशी टासी नर्बु गुरूङ, उपाध्यक्षपदे च एमाले दलस्य एव छिमी विष्टः विजयम् अलभताम्। लोमान्थाङ ग्रामपालिकायाः प्रथम पञ्चम वडाक्षेत्रयोः नेपाली कांग्रेस दलस्य प्रत्याशिनौ द्वितीय तृतीय चतुर्थ वडाक्षेत्रेषु च नेकपा एमाले दलस्य प्रत्याशिनः निर्वाचिताः सन्ति। नेकपा एमाले दलेन लोमान्थाङ ग्रामपालिकया सह लोहेकर दामोदरकुण्ड ग्रामपालिकायां, बारागुङ मुक्तिक्षेत्र ग्रामपालिकायां च, नेपाली कांग्रेस दलेन घरपझोङ ग्रामपालिकायां च विजय अधिगतोऽस्ति। डडेलधुरा जनपदस्य गन्यापधुरा ग्रामपालिकायाः अध्यक्षपदे नेपाली कांग्रेस दलस्य प्रत्याशी इन्द्रबहादुर कार्की निर्वाचितो वर्तते। एवमेव उपाध्यक्षपदेऽपि नेपाली कांग्रेस दलस्यैव प्रत्याशी ज्ञानु कुमारी सेट्टी विजयिनी सम्भूतास्ति। डडेलधुरा जनपदे नेपाली कांग्रेस दलेन सप्तसु वडाक्षेत्रेषु विजय अधिगतोऽस्ति। बुटवलोप महानगरपालिकायाः प्रथमवडाक्षेत्रस्य अध्यक्षपदे स्वतन्त्र प्रत्याशी नरेन्द्र बस्नेत विजयी सम्मृतो वर्तते। महोत्तरी जनपदस्य शम्सी ग्रामपालिकायाः प्रथमवडाक्षेत्रस्य अध्यक्षपदे नेपाली कांग्रेस दलस्य विपिन बिहारी यदुवीरः विजयी सम्मृतो वर्तते। बागलुङ नगरपालिकायाः प्रथमवडाक्षेत्रे नेपाली कांग्रेस दलस्य जयबहादुर केसी विजयी सम्मृतोऽस्ति। भक्तपुर जनपदस्य थिमी नगरपालिकायाः प्रथमवडाक्षेत्रे नेपाली कांग्रेस दलस्य प्रत्याशी बाबुकाजी डंगोलः अध्यक्षपदे निर्वाचितो वर्तते। जुम्ला जनपदस्य सप्तानां स्थानीयस्तराणां निर्वाचनस्य मतपरिणामः सम्पन्नो वर्तते। तत्र नेपाली कांग्रेस दलस्य चत्वारः प्रत्याशिनः, नेकपा माओवादी केन्द्रस्य त्रयः प्रत्याशिनश्च अध्यक्षपदे निर्वाचिताः सन्ति। नेपाली कांग्रेस दलस्य कर्णबहादुर कठायत, रतनबहादुर शाही, हरिनन्द आचार्य, तिलक न्यौपाने च निर्वाचिताः सन्ति। नेकपा माओवादी केन्द्रस्य जंगबहादुर बस्नेत, भीमबहादुर भण्डारी च निर्वाचितौ स्तः। एवमेव सुनसरी जनपदस्य दुहवी नगरपालिकायाः प्रथमवडाक्षेत्रस्य अध्यक्षपदे नेकपा एमाले दलस्य अजुर हुसेन, अछाम जनपदस्य कमलबजार नगरपालिकायाः नवमवडाक्षेत्रस्य अध्यक्षपदे नेकपा एमाले दलस्य कमल प्रसाद बजगाई, एतस्य एव जनपदस्य बान्हीगढ़ी जयगढ़ ग्रामपालिकायाः प्रथम वडा क्षेत्रस्य अध्यक्षपदे नेपाली कांग्रेस दलस्य पक्षतः गठबन्धनस्य गजेन्द्र खड्का, बैतडी जनपदस्य दशरथ चन्द नगरपालिकायाः प्रथम वडा क्षेत्रस्य अध्यक्षपदे नेकपा एमाले दलस्य विष्णु भट्ट, बागलुङ जनपदस्य गलकोट नगरपालिकायाः एकादश वडा क्षेत्रस्य अध्यक्षपदे डम्बर बहादुर श्रीशः, सर्लाही जनपदस्य हरिपुर नगरपालिकायाः नवम वडा क्षेत्रस्य अध्यक्षपदे समाजवादी दलस्य विश्वनाथ राय यादवश्च विजयिनः सम्मृताः सन्ति। वैशाखस्य त्रिंशे दिवसे सम्पन्ने स्थानीय स्तराणां निर्वाचने स्थगित मतदानानां मतदान केन्द्राणां संख्या 85 प्राप्ता वर्तते। निर्वाचन आयोगस्य संयुक्त निर्वाचन संचालन केन्द्रे गतसायं यावत् प्राप्तस्य विवरणस्य अनुसारेण लुम्बिनी प्रदेशं विहाय षण्णां प्रदेशानां 17 जनपदानां च चतुश्चत्वारिंशत् स्थलानि आहत्य 85 केन्द्रेषु मतदानं स्थगितीकृतं वर्तते। एतेषां मध्ये कतिपयेषु पुनर्निर्वाचनाय दिनांकाः निर्धारिताः सन्ति। कतिपयेषु च निर्वाचनम् अवशिष्टमस्तीति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः ज्ञापयत्। कतिपयेषु मतदानस्थलेषु उत्पन्नस्य विवादस्य समाधानाय आयोगात् समूहाः गच्छन्तीति प्रवक्ता पौडेलः अज्ञापयत्। स्थगित मतदानानां मतदान केन्द्राणां मध्ये 29 केन्द्रेषु अद्य श्वः परश्वश्च नवीन निर्वाचन दिनांकाः निर्धारिताः सन्ति। सप्तरी जनपदस्य रूपनी ग्रामपालिकायाः पञ्चम वडाक्षेत्रवर्तिनी बसबिट्टी स्थाने मतदानस्य क्रमे निर्लक्ष्य गोलिका प्रहारस्य अनन्तरं स्थगितीकृतं मतदानं शोभविता। रूपनी ग्रामपालिकायाः प्रथम वडाक्षेत्रस्य निर्वाचनाधिकृतस्य कार्यालये ह्यः उपविष्टेन उपवेशेन स्थगितीकृतं मतदानं श्वः प्रातः 7 प्रारब्धं निर्णीतमिति निर्वाचनाधिकृतः कुमार मास्के अज्ञापयत्। तनहु जनपदस्य व्यास नगरपालिकायाः अष्टम वडाक्षेत्रस्य द्वयोः मतदान केन्द्रयोः पुनः मतदानं भविष्यति। निर्वाचनायोगेन शुक्रवासरे सम्पादितं मतदानं स्थगितीकृत्य पुनर्मतदानाय निर्णीतं वर्तते। अस्यैव ज्येष्ठमासस्य चतुर्थे दिनांके पुनर्मतदानं भवितेति मुख्य निर्वाचनाधिकृतः हरिश्चन्द्र ढुङ्गाना अज्ञापयत्। एतयोर्मतदान केन्द्रयोः पुनर्मतदानानन्तरम् एव व्यास नगरपालिकायाः मतगणना कार्यं विधास्यते इति आयोगेन ज्ञापितं वर्तते। एवमेव सर्लाही जनपदस्य बरहथवा नगरपालिकायामपि पुनर्मतदानं भविष्यति। बरहथवा नगरपालिकायाः 17 वडाक्षेत्रवर्तिनी मतदान केन्द्रे पुनर्मतदानं भविष्यति। सर्लाही जनपद निर्वाचन कार्यालयस्य निर्वाचनाधिकारी दिवाकर भुजेलः ज्ञापयत्। सर्वदलीय उपवेशस्य अनन्तरं निर्वाचनस्य दिनांकः निर्धारयिष्यन्ते इति निर्वाचनाधिकारी भुजेलः ज्ञापयत्। जसपा नाम्ना जनता समाजवादी दलेन स्वपक्षीयान् मतदातृन् एव मतदानाय सहयोग विहित, परम् अन्येषां दलानां समर्थकाः मतदातारः मतदान केन्द्रे प्रवेशाय अपि निषिद्धा आसनिति नेपाली कांग्रेस नेकपा एमाले जनमत स्वतन्त्र प्रत्याशिनश्च आरोपितवन्तः। नेपाल तैल निगमेन गतरात्रौ द्वादशवादनात् क्रियान्वयनत्वेन शिला तैलीय पदार्थानां मूल्यं वर्धितं वर्तते। अन्तर्राष्ट्रियापणे प्रशोधित तैलस्य मूल्यं वर्धितमिति तर्कयता निगमेन पेट्रोल डिजेल मृत्तिका तैलानां विद्यमाने स्फुट विक्रय मूल्य प्रतिलिटरमितं 10 रूप्यकाणि वर्धितानि सन्ति। एतत् अनुसारेण पेट्रोल तैल प्रतिलिटरमितं 70% डिजेल तैले मृत्तिका तैले च प्रतिलिटरमितं 53% रूप्यकै मूल्यं वर्धितं वर्तते इति समाचाराः।